देवती वासुदेवाय श्री भगवान उवाच परम भूय प्रवक्षामि ज्ञानानां ज्ञानमुत्तमं यज्ञात्वा मुनयः सर्वे परां सिद्धिमतो गताः इदं ज्ञानमपाश्रित्य मम साधर्म्यम् आगताः सर्गेऽपि नोपजायन्ते प्रलयेन विधन्ति च मम यो निर्मात् ब्रह्म तस्मिन् गर्भं दधाम्यहम् संभव सर्वभूतानां ततो भवति भारत सर्वयो निश कौन्तेयमूर्तयः संभवन्ति याः तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः निपध्रन्ति महाबाहो देहे देहिन मव्ययम् तत्र सत्वं निर्मलत्वात् प्रकाशगमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्घेन जानः रजो रागात्मकं विद्धि तृष्णासङ्गतमुद्भवं तन्निबध्नाति कौन्तेया कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्युता रजस्तमश्चाभिभूया सत्त्वं भवति भारत रजसत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युतः लोभप्रवृत्तिरारम्भः कर्मणामशमस्पृहा रजस्येतानि जायन्ते विवृद्धे भरदर्शवा अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे गुरुनन्दन यथा सत्त्वे प्रवृद्धे तु प्रलयं याति देहवृद् तदोत्तमविदां लोकानमलान् प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसङ्घिषु जायते तथा प्रलीनस्तमसि मूढयोरिषु जायते कर्मणः सुकृतस्याहो सात्विकं निर्मलं फलं रजसस्तु फलं दुःखमज्ञानं तमसः फलं सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ च तमसो भवतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्था अथो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं रोधि गच्छति गुणानेतानतीत्यत्रीन् देही देहसमुद्भवान् जन्म मृत्युर्जरा दुःखैर्विमुक्तोऽमृतमश्नुति अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो किमाचारः कथं चेतां स्त्रीन् गुणानति वर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव न द्वेष्टिसम्प्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीन उदासीनो गुणैर्योन विचाल्यते गुणा वर्तन्त इत्येव यो तिष्ठति लिङ्गते समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रिया प्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः मानापमानयोस्तुल्यस्तुल्यो मित्रादिपक्षयोः सर्वारम्भपरित्यागे गुणातीतः स उच्यते मां च यो व्यभिचारेण भक्तियोगेन सेवते स गुणान् समतीत्येतान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठा ममृतस्यावेयस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तकस्य च ॐ तत् श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः।